सर्वेषां स्वागतं प्रार्थनया आरम्भं कुर्मः. अस्तु भगिनि.
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. शान्तिमन्त्रम् आल्सो भगिनि. सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै. शान्ति शान्ति शान्तिः.
धन्यवादः भगिनि. कुत्रापि गतवती. एकनिमिषम्. ध्येयमन्त्रमपि वदामः वा?
आं भगिनि.
वदतु भगिनि. अन्य कोऽपि वक्तुम् इच्छति वा? भवती एव वदति वा?
अहं वदामि.
अस्तु भगिनि.
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मनमाहुतं मन्ये वन्दे संस्कृतमातरम्.
अत्र आत्मानमिति
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्तिं समन्वितम्.
धन्यवाद. सो एतदेव संस्कृतभारत्याः स्टाण्डर्ड् मन्त्र, ध्येयमन्त्रः इति सङ्कल्पम्. प्रतिदिनं सङ्कल्पम् एवं स्वीकुर्मः. अहं पठामि संस्कृतं, पठामि नित्यम्, एवमेवं करोमि. संस्कृतस्य प्रसाराय अहं सर्वत्र वदामि संस्कृतं सम्यक् अस्ति इति. यत् किमपि अहम् अर्जनं कृतवती तत् दास्यामि. संस्कृतस्य भक्तः अस्मि. संस्कृतस्य कृते मम जीवनमपि अर्पयामि. एवमेवम् अपि च हिन्दुधर्ममपि रक्षामि इति. संरक्ष्य शान्तिसमन्वितं करोमि इति सङ्कल्पं स्वीकुर्मः प्रतिदिनम् इति संस्कृतभारत्याः लक्ष्यम् एवम् अस्ति. अस्तु, अग्रे.
नमस्कारः भगिनि.
नमस्कारः भगिनि. नाम किं भगिनि?
वीणाबेन. वीणा.
अस्तु, स्वागतम्. अस्तु, सो अत्र श्रीनिवासमहोदय पठति वा महोदय? यस्य नास्ति.
आं भगिनि.
धन्यवादः.
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्. लोचनाभ्यां विहीनस्य दर्पण किं करिष्यति.
दर्पणः किं? पुनरेकवारं पठतु, स्पष्टं भवति.
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं शास्त्रं तस्य करोति किम्. लोचनाभ्यां विहीनस्य दर्पण किं करिष्यति.
विहीनस्य, विहीनस्य, लोपस्य,
यस्य मनुष्यस्य स्वबुद्धिः नास्ति तस्य कृते शास्त्रस्य कः उपयोगः यस्य लोचने न स्तः तस्य कृते दर्पणस्य किं प्रयोजनम्
यस्य मनुष्यस्य स्वबुद्धिः नास्ति इत्युक्ते स्वयं प्रज्ञा यस्य स्वयं प्रज्ञा नास्ति यस्य स्वबुद्धिः नास्ति शास्त्रं पठित्वा शास्त्रतः किमपि न स्वीकर्तुं शक्नोति खलु वयं श्लोकं पठामः न अवगच्छामः चेत् श्लोकस्य प्रयोजनः अपि नास्ति प्रयोजनं नास्ति उपयोगः नास्ति यथा यथा लोचनं लोचनम् इत्युक्ते नेत्रं नेत्रं नास्ति चेत् तस्य कृते दर्पणः किं करिष्यति किमपि न दर्पणस्य प्रयोजनं नास्ति खलु दर्पणस्य प्रयोजनं नास्ति यस्य नेत्रं नास्ति तस्य तस्य कृते दर्पणः न आवश्यकः तथा एव बुद्धिः नास्ति चेत् शास्त्रमपि न आवश्यकं प्रयोजनं नास्ति इति अस्ति सो अतः वयं किं करणीयं वयं बुद्धिमन्तः बुद्धिः अस्ति चेत् सम्यक्तया शास्त्रं पठनीयम् इति सुभाषितं वदति अवगच्छति वा अर्थम्
आं भगिनि
अस्तु अग्रे गच्छतु महोदय वदतु
अवगच्छामि
अस्तु अत्र विहीनस्य इत्युक्ते लोचनाभ्याम् अभावः न न भवति अभावः हीन अपि समानार्थः एव हीनस्य यस्य लोचनाभ्यां हीनस्य हीनः अस्ति विहीन उपसर्ग वि योजयामः चेदपि समानार्थकपदमेव पोषणं तादृशम् अस्ति अस्तु गीतं गायामः प्रवहतु नित्यं संस्कृतगङ्गा सत्यसनातनधर्मवृद्धये गायन्तु
प्रवहतु नित्यं संस्कृतगङ्गा
तदर्थमस्मज्जीवन पुष्पं समर्पयामो निजकार्ये उत्तमम् वयं मिलामः प्रतिसप्ताहं ग्रामे नगरे कार्यस्थाने अधः एव अस्ति उपरि न गच्छति पुनरेकवारम् वयं मिलामः प्रतिसप्ताहं ग्रामे नगरे कार्यस्थाने ग्रामे नगरे कार्यस्थाने पठन पाठने व्यापृता वयम् सुवर्धयाम सङ्घटनम्
सुवर्धयाम सङ्घटनम्
पठनपाठने व्यापृता वयं सुवर्धयाम सङ्घटनम् अग्रे स्वाध्यायेन समेधयामहे परम्परां निज विज्ञानम् हृदय पङ्कजं विकासयामः संस्कृतपाठनयज्ञेन स्वाध्यायेन समेधयामहे परम्परां निज विज्ञानम् हृदय पङ्कजं विकासयामः संस्कृतपाठनयज्ञेन अस्तु अन्तिमम् विवेकवाणी गुञ्जतु हृदये तस्य भाषणं सहज जीवनम् अविरत चलनं सरल जीवनम् कार्यसाधकं भवतु सदा विवेकवाणी गुञ्जतु हृदये सत्यभाषणं सहज जीवनम् अविरतचलनं सरल जीवनम् कार्यसाधकं भवतु सदा प्रवहतु नित्यं संस्कृतगङ्गा सत् सनातनधर्मवृद्धये तमाम् तदत्तमस्मज्जीवनपुष्पं समर्पयामो निजकार्ये प्रवहतु नित्यं संस्कृतगङ्गा उत्तमम् उत्तमम् अस्तु अग्रे गच्छामः. कथा अस्ति लुब्धः शृगालः. लुब्धः शृगालः अस्तु. जयश्री भगिनी वाक्य द्वयं वा त्रयं वा इति पठतु. आं भगिनि.
आं भगिनि. लुब्धः शृगालः कश्चन व्याघ्रः आसीत्. एकदा
व्याधः
व्याधः आसीत् व्याधः आसीत्, सः एकदा मृगायार्थं वनं गतवान्।
अग्रिममपि पठतु। बहुकालानन्तरं
सः एकं वराहं दृष्टवान्। तं लक्षीकृत्य सः बाणप्रयोगं कृतवान्।
अस्तु, अत्र लुब्धः इति अस्ति चेत् लोभयुक्त शृगालः, लोभी इत्युक्ते अधिकमधिकम् आशा अस्ति, इच्छा अस्ति, एतत् पर्याप्तम् इति तस्य मनसि नास्ति, इतोपि अधिकम् आवश्यकम्, इतोपि अधिकम् आवश्यकम् इति सः चिन्तयति। अतः लोभी, लोभयुक्तशृगालः, लुब्धः, सः लुब्धः आसीत्, लुब्धवान्, लुब्धवान् तव तु लुब्धः सप्रत्यय, लुब्धः शृगालः। अपि च एकः व्याधः आसीत्, व्याधः किं करोति, मृगाणां मारणं करोति सः, खलु मृगाणां मारणं करोति, वनं गच्छति, मृगान् मारयति, तथा एव तस्य जीवनं यापयति व्याधः। सः एकदा मृगयार्थम् इत्युक्ते मृगम् अन्वेषणार्थं वनं गतवान्। बहुकालानन्तरं सः एकं वराहं दृष्टवान्। तं लक्षीकृत्य इत्युक्ते बाणं तस्य उपरि प्रयोगं करणार्थं लक्षीकृतवान् इत्युक्ते किम्? एमिङ्ग्, बाणं तस्य उपरि करणीयम् इति चिन्तयित्वा लक्षीकृतवान् सः। अस्तु, अग्रे लता भगिनी।
आं भगिनि, वराहस्य शरीरे महान् वृणः जातः। व्रणितः वराहः कोपेन व्याधस्य उपरि आक्रमणं कृतवान्। स्वीयाभिः तीक्ष्णाभिः दंष्ट्राभिः तस्य शरीरं विदीर्णवान्। तेन व्याधः मृतः। बाणप्रहारवेदनया वराहः अपि मृतः।
अस्तु,
व्याघ्रस्य उपरि वराहस्य शरीरे महान् वेदना भवति, अतः वराहः कोपेन व्याधस्य उपरि आक्रमणं कृतवान्। स्वीयाभिः दीक्ष्णाभिः दंष्ट्राभिः किम् अर्थं भगिनि?
अत्र स्वीय इति पदं तस्य इति पदस्य पर्यायपदम् इति वक्तुं शक्नुमः। तस्य इति पदं सः अस्ति चेत् तस्य, सो अत्र तस्य इति कर्ता अनुसृत्य भवति, सः तस्य इति, परन्तु स्वीय इति वदामः चेत् कर्म अनुसृत्य भवति। सो अत्र दंष्ट्राभिः इत्युक्ते एकं द्वे त्रीणि अधिकम् अस्ति, दन्ताभिः, बट् अत्र टस्क् इति वदामः खलु, दन्तः एव, परन्तु अन्यपदम् अस्ति, टस्क् इति अस्ति, दंष्ट्र, अतः दंष्ट्राभिः कीदृशदंष्ट्राभिः तीक्ष्णाभिः 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 शार्प् 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 टस्क्स् वित् द टास्क्स् वित् द शार्प् टस्क् हूस् स्वीयाभिः तस्य ऐ केन् से तस्य तस्य तीक्ष्णाभिः दंष्ट्राभिः परन्तु स्वीय इति पदम् उपयोगं कुर्मः चेत् कर्म अनुसृत्य भवति सो अत्र विशेषणं भवति स्वीय इति वदामः चेत् कर्मविशेषणं तस्य इति वदामः चेत् कर्तृविशेषणम् तस्य दंष्ट्राभिः तस्य शरीरं विदीर्णवान् विदीर्णवान् इत्युक्ते विभजनं कृतवान् तस्य कस्य विभजनं कृतवान् व्याधस्य स्वीयाभिः दंष्ट्राभिः वराहः तस्य शरीरं विदीर्णवान् सो अत्र तस्य शरीरम् इत्युक्ते व्याधस्य शरीरं व्याधस्य शरीरं विभजनं कृतवान् इत्युक्ते न विभजनं कृतवान् विदीर्णवान् तेन व्याधः मृतः व्याधः मृतः बाणप्रहारवेदनया वराहः अपि मृतः वराहः अपि मृतः व्याधः अपि मृतः अस्तु सविता भगिनी धन्यवादः भगिनि
आं भगिनि तस्मिन् एव वने कश्चन शृगालः आसीत् सः अतीवलुब्धः सः शृगालः आहारान्वेषणं कुर्वन् तत्र एव आगतवान् व्याधस्य वराहस्य च मृतं शरीरं च दृष्टवान् तद् दृष्ट्वा सः एक्स्प्लेन् ऐ एम् नाट् एबल् टु सी
इट्स् ओके अत्र वदतु भगिनि
तस्मिन् एव वने एकस्मिन् शृगालः आसीत् सः अतीव लुब्धः
एकः शृगालः एकः शृगालः
सः शृगालः आहारान्वेषणं कुर्वान् तत्र एव आगतवान्
आहारार्थं सः शृगालः तत्र आगतवान् शृगालः व्याधस्य वराहस्य मृतशरीरं दृष्टवान्
शरीरं दृष्टवान् अत्र व्याकरणं किम् अस्ति सो अत्र वने इति सप्तमी विभक्ति अतः तस्मिन् वने तत् वने इति न वक्तुं शक्नुमः तस्मिन् एव वने कश्चन अथवा एकः शृगालः सम्यक् अतीव लुब्धः लुब्धः वयं जानीमः
आहारः
अतीव लुब्धः कुर्वन् इति शत्रुप्रत्यय पुल्लिङ्ग कुर्वन् श्रीलिङ्गे कुर्वती इति भवति आगतवान् व्याधस्य वराधस्य ओके तत् दृष्ट्वा सः अस्तु विष्णुमहोदय सः तत् दृष्ट्वा
तत् दृष्ट्वा शृगालः अद्य एतां चर्मणः
अत्र तत् दृष्ट्वा
सः
चिन्तितवान्
आमां तत् दृष्ट्वा एव सः चिन्तितवान् अद्य मम दैवम् अनुकूलम् अस्ति इष्टम् आहारः विनायासं लब्धः एषः आहारः बहुदिनानां कृते पर्याप्तः भविष्यति अतः प्रतिदिनम् अपि कश्चिद्देव खादामि इति
किञ्चिदेव खादामि अस्तु
सः शृगालः चिन्तितवान् अत्रे मम दैवं प्रतिकूलम् अस्ति मम इच्छित आहारं विना कृतेः लब्धवान्, एषः सः आहारः बहुदिनानाम् अन्ते पर्याप्त भविष्यति, अतः सः चिन्तितवान् अहं प्रतिदिनं किञ्चित् किञ्चित् खादामि.
धन्यवादः महोदय. दैवम् इत्युक्ते
लक्
लक्
प्रारब्धं
मम प्रारब्धं सम्यक् अस्ति, मम अनुकूलम् अस्ति, मम कृते सौकर्यम् अस्ति, सौकर्याय अस्ति इति सः चिन्तितवान्. यथेष्टं नो 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 देवम् इस् गाड्, दैवम् इस् फेट्, लक् फार्च्यून् फेट् विधि तादृशं भाग्यम् भाग्यं सम्यक् भाग्यम्. यथेष्टम् इत्युक्ते यथा इष्टं तथोपि अधिकम् इति अर्थं. यथेष्टम् आहारः विना यासम्, यासम् इत्युक्ते प्रयत्नं विना लब्धः अस्ति, आहारः लब्धः अस्ति. एषः आहारः बहुदिनानां कृते पर्याप्तः, आहारः पर्याप्तः भविष्यति इति सः चिन्तयति. अस्तु, निर्मला भगिनी अग्रे.
सः व्याधस्य शरीरं परिशीलितवान्. तस्य शरीरस्य पार्श्वे चापः पतितः आसीत्. चापे चर्मणि निर्मिता रज्जुः बद्ध्वा आसीत्. तत् दृष्ट्वा शृगालः, आद्य एतं चर्मणः रज्जु खादामि.
अस्तु भगिनि, इतोपि पर्याप्तम्. शृगालः
व्याधस्य शरीरं परिशीलितवान्. पार्श्वे चापा इस् वाट् इस् द मीनिङ्ग् आफ् पार्श्वे?
पार्श्वे इत्युक्ते समीपे. पार्श्वे न न पार्श्वे मीन्स् समीपे, पृष्ठतः एव बेक्. तस्य शरीरस्य पार्श्वे समीपे चापः पतितः, एतदेव चापः. बो बो बो
एरो
बो बो बाणः इस् एरो, बाणः एरो, चापः बो.
धनुषः
धनुः चापः धनुः. सो अत्र चापः अस्ति. चापे चर्मनिर्मिता रज्जुबद्धा, सो अत्र एवमस्ति रज्जुबद्धा, रज्जुबद्धा अत्र अस्ति. रज्जुबद्धा चर्म उपयुज्य निर्मिता आसीत्. चर्म इत्युक्ते त्वक्, स्किन्, कस्यापि मृगस्य चर्म उपयुज्य रज्जुबद्धा आसीत्. अस्तु, अग्रे पठतु निर्मला. निर्मला अभवत्, उमा उमा भगिनी.
अन्यत् सर्वं पश्चात् खादामि इति चिन्तितवान्. चापस्य एकां कोटीं मुखे स्थापयित्वा सः दन्तैः रज्जुं जगद्वान्
जग्दवान्
परन्तु यदा रज्जुः भग्ना तदा चापस्य कोटिः शृगालस्य मस्तकं विधीर्य बहिः आगता. शृगालः तया वेदनया तत्क्षणे एव मृतः अभवत्.
मृतः अभवत्.
शृगाल चिन्तितवान् अन्यत् सर्व पाश्चात् खादामि इति.
इदानीम् अहं चर्म प्रथमं खादामि, चर्मरज्जुं खादामि, चर्मणः रज्जुं प्रथमं खादामि.
अन्यत् अन्यत् इत्युक्ते
अदर्स् अदर्स् अन्यत् अन्यत् सर्वं दि अदर् पश्चात् अनन्तरम्
अनन्तरं सर्व अन्यत् सर्व खादामि इति चिन्तितवान्. अपस्य एकां कोटि मुखे स्थापयित्वा सः
चापस्य एकां कोटिं, कोटिम् इत्युक्ते अत्र एव कोटि, वन् एण्ड् इति वदामः खलु, वन् एण्ड् कोटि. चापस्य एकां कोटिं मुखे इत्युक्ते
स्थापयित्वा
रज्जुम् इत्युक्ते रोप् रोप् चर्म चर्मणा
प्रत्यञ्च
जुं जगद् जग्द्वान्
जग्द्वान् इत्युक्ते खादितवान्, हि पुल्ड् खादितवान् दन्तैः रज्जुं खादितवान्
यदा रज्जुं भग्ना तदा चापस्य कोटि
अस्तु चापस्य एकां कोटि मुखं स्थापयित्वा दन्तैः रज्जुं जग्दवान्. जग्दवान् इत्युक्ते ततः बहिः स्वीकृत्य खादितवान्. हि पुल्ड् अण्ड् हि एट् लैक् दट् इति जग्दवान्. परन्तु यदा रज्जुः भग्ना चापतः यथा भग्नः अभवत् रज्जुः, तथा चापस्य कोटिः, कोटिः इत्युक्ते अत्र अस्ति खलु कोटिः, शृगालस्य मस्तकं विभजनं कृतवान्, विभजनं कृत्वा बहिः आगत. सो इट् पियर्स्ड् द मौत् अण्ड् इट् केम् औट् इति. मस्तकं विदीर्य, विदीर्य इत्युक्ते पियर्स् विदीर्य बहिः आगता, चापं बहिः आगता, किम् आगता, कोटि रज्जु बहिः आगता. अवगतं वा? अस्तु
तया वेदनया तक्षेण एव मृतः अभवत्. शृगाल शृगाल वेदनम् अभवत् अनन्तरं शृगाल वेदनस्य मृतः अभवत्.
वेदनाकारणेन मृतः अभवत्. मृतवान् सः. किमर्थं मृतवान्? तस्य लोभः आसीत्, सः लोभी आसीत्, अतः एव मृतवान् इति सारांशः, कथायाः सारांशः एवम् एवम् अस्ति. अवगतं वा सर्वम्? अस्तु, अग्रे गच्छामः. अद्यतनविषयः अस्ति लोट्लकारः. लोट्लकारः वयं गतवर्गे परस्मैपदी किञ्चित् सम्यक्तया पठितवन्तः इति. उदाहरणार्थं भवतु, भवतां, भवन्तु, अत्र एव भवतु, भवति अत्र एव भवतु, भवन्तौ अत्र एव भवताम्, भवन्तः अत्र एव भवन्तु इति साधारणतया लोट्लकारः इति वदामः चेत् आज्ञा प्रार्थना एव, इत्युक्ते भवान् एवं करोतु इति वदामः, भवान् अथवा भवति एव. परन्तु सः सा तत् इति वदामः चेत् अत्र अनुज्ञां दद्मः इव. उदाहरणार्थं बालकः वदति अहं क्रीडितुं गच्छामि इति, अम्बा वदति मा गच्छतु पठतु इति, जनकः वदति सः क्रीडतु इत्युक्ते लेट् हिम् प्ले इति. सो अत्र लोट्लकाररूपम् अस्ति, परन्तु साक्षात् आज्ञा प्रार्थना न, अनुज्ञा इत्युक्ते लेट् हिम् गो इति. लेट् इति पदस्य संस्कृतभाषायां नास्ति, परन्तु सः सा एवम् उक्त्वा पठतु क्रीडतु इति वदामः चेत् तत्र अनुज्ञां दद्मः इव भवति. अवगच्छन्ति वा? प्रश्नः अस्ति वा?
न भगिनी, अवगच्छामि.
वाक्यं वदति वा कोऽपि?
अहं वदामि.
भेदः कः? वदतु भगिनि.
बालकः पठतु, बालकौ पठतां, बालकाः पठन्तु.
इत्युक्ते किं? बालकः पठतु इति वदामः चेत् किं वदामः वयम्? आज्ञां दद्मः. अस्तु, सम्यक्. भवान् पठतु इति भवान् साक्षात् अहं वदामि, इदानीं पठतु, कृपया पठतु इति. अस्तु अस्तु. सो अत्र अन्य क्रियापदम् उपयुज्य वयम् उक्तवन्तः पुस्तके. अस्तु, इदानीम् आत्मनेपदि धातु. सो अत्र भेदः कः? भेदः परस्मैपदी द्विवचने एव ताम् इति अस्ति, परन्तु परस्मै आत्मनेपदि धातु एकवचने अपि ताम् एव. वन्द धातु अस्ति चेत् वन्दताम्, भवान् वन्दताम्, इदानीमेव देवं वन्दताम्, भवन्तौ देवं वन्दे ताम्, भवन्तौ द्विवचनं, भवन्तः वन्दन्तां वन्दन्ताम् इति अस्ति, वन्दतां वन्दे तां वन्दन्ताम्. त्वं वन्दस्व युवां वन्दे थां वन्दे वन्दे थां, यूयं वन्दध्वम्, अहं वन्दे वन्दावहे वन्दामहै वन्दावहै वन्दामहै, एवम् एवं भवति. अस्तु, वयं पुस्तकं प्रति गच्छामः वा? एकनिमिषं, गीतासोपा. द्रष्टुं शक्नुवन्ति खलु? अस्तु, कुत्र स्थगितवन्तः वयम्? एकनिमिषम् अहं पश्यामि. पुटसङ्ख्या अत्र आम् आम्, धन्यवादः. सो अत्र एकवारम् अभ्यासं कुर्मः. क्रीडति, सो अत्र क्रीडति इति लट्लकार, क्रीडतु लोट्लकार. अस्तु, इतः आरम्भं कुर्मः. अस्तु, पठतु, पठतां, पठन्तु एवम् अस्ति. अन्यक्रियापदम् उपयुज्य कस्य पर्याय? उमा भगिनी, पठतु इति अस्ति, क्रीडतु उपयुज्य करोति वा भगिनी? कृपया.
सः क्रीडतु, भवन्तौ क्रीडतां, भवन्तः क्रीडन्तु, त्वं क्रीडामि आवां क्रीडाव वयं क्रीडाम
क्रीडाम क्रीडाव क्रीडाम अस्तु सम्यक् भगिनी अम्ब वक्तुमिच्छति वा लिखति लिक् लिक् दातु
भवान् लिख लिखतु भवन्तौ लिखतां भवन्तः लिखन्तु
सम्यक्
त्वं लिख त्वां लिखतम्
युवां लिखतम् युवां
यूयं लिखत
युवां लिखतं यूयं लिखत सम्यक् अस्तु वयं लिखाम सम्यक् अस्तु अग्रे गच्छामः उर्मिला भगिनी अत्र क्रीडति अस्ति क्रीडतु अपि अस्ति नमति नमतु अपि अस्ति किमपि क्रियापदं स्वीकृत्य वदतु भगिनी रक्षति अस्ति नमति अस्ति
नमति नमतां नमन्तु
नमतु नमतां नमन्तु अस्तु अग्रे
रक्षतु रक्षतां रक्षन्तु
अस्तु
भ्रमतु भ्रमतां भ्रमन्तु
भ्रमन्तु अस्तु सन्ध्या भगिनि त्वम् उपयुज्य
त्वं नम युवां नमतम् यूयं नमत
नमत अहमपि वदतु
अहं नमामि
सम्यक्
मां नमाव वयं नमाम
नमाम सर्वे अवगच्छन्ति वा
आं भगिनि
अत्र विसर्गः नास्ति अस्तु अग्रे शारदा भगिनी अत्यजसि इति अस्ति नवरूपाणि वदति वा त्यजतु इति आरभ्य शारदा भगिनी नास्ति शारदा भगिनी म्यूट् मध्ये अस्ति वा अस्तु तर्हि वीणाबेन् भगिनी वीणाबेन् भगिनी नास्ति अस्तु शोभना भगिनी
आं भगिनि त्यजत
अस्तु अहम्
अहं त्यजानि
सम्यक्
आवां त्यजाव वयं त्यजाम
सम्यक् अत्र मी वः मः अस्ति अत्र नि व म एव नि व म सम्यक् अस्तु चम्पा भगिनी अत्र पचामि इति अस्ति स्वीकृत्य नवरूपाणि भगिनि पचतु
पचतु पचतां पचन्तु
आम्
पच पचतम् पचत पचामि पचाव पचाम
पचाम अस्तु सम्यक् सो अत्र तोलनम् अस्ति ति तः अन्ति लट्लकारे लोट्लकारे तु ताम् अन्तु तु ताम् अन्तु लट्लकारे सि तः थ लोट्लकारे अत्र किमपि नास्ति स्मर एव अ तं त अहं केवलम् अ इति वदामि अ तं त उत्तमपुरुषे मी वह मह नी व म अस्तु अग्रे अग्रे गच्छामः एतत् न कृतवन्तः खलु वयं केवलं न कृतवन्तः अस्तु सो अहम् उक्तवती भवन्तः वाक्यानि वदतु इति अस्तु श्रीनिवास महोदय वदति वा किमपि वाक्यं किमपि लोट्लकारं एतानि क्रियापदानि आवश्यकं चेत् स्वीकरोतु
भवान् पाठं पठतु
सम्यक् भवान् पाठं पठतु अस्तु जयश्री भगिनी एकं वाक्यं किमपि किमपि क्रियापदम्
अहं देवं नमामि
नमामि सम्यक् अस्तु लता भगिनी
अहं श्लोकं स्मरामि
स्मरामि सम्यक् अस्तु सविता भगिनी
अहं चित्रं पश्यामि
पश्यामि अस्तु विष्णुमहोदय
युवां
धावतम् अत्र युवम् इति अस्ति युवामेव युवां धावत
युवां धावत
मुद्रणद्वयम् अस्ति अत्र अस्तु युवां धावतं सम्यक् निर्मला भगिनी
पूजां कुर्मः कुर्वः
वयं पुनः वदतु भगिनि आवां वा पूर्णवाक्यं वदतु भगिनि अहं न श्रुतवती पूजाम् आवां पूजा सो अत्र कृ धातु किञ्चित् भिन्नम् अस्ति करवाणि करवाव इति अस्ति
सो
करवाव अस्तु
क्षम्यतां भगिनि गायति त्वं किम् आगच्छति गाय वा
गाय गाय गाय
धन्यवादः
धन्यवादः सो अत्र अहं दर्शयामि अष्टाध्यायी एकनिमिषं कृ धातु किञ्चित् भिन्नधातु कृ इति पश्यति चेत् धातुद्वयम् अस्ति कृन् अस्ति डुक्रन् अस्ति डुक्रनेव स्वीकरोतु कृ अस्ति चेत् टु किल् टु डिस्ट्राय् एवम् एवं भवति परन्तु डुक्रन् करणे एव टु डु कथं भवति लोट्लकारं सो अत्र आत्मनेपदी अस्ति परस्मैपदी अपि अस्ति इदानीं वयं लोट्लकारं पश्याव लोट्लकारे एवम् अस्ति करोतु कुरुतां कुर्वन्तु एतत् जानीमः कुरु कुरुतं कुरुत परन्तु अहम् इति अस्ति चेत् करवाणि करवाव करवाम इति भिन्नरूपं भवति धन्यवादः भगिनी अस्तु अवकाशं दत्तवती भवती अस्तु अग्रे सविता उक्तवती खलु इदानीम्
आं भगिनि अहम् उक्तवान्
विष्णुमहोदय उक्तवान् वा अहं न लिखितवान् लिखितवती अत्र अस्तु विष्णुमहोदय उक्तवान्
अहं कूजः
अहं
कूज
तत्र त्वं कूज
त्वं कूज अहं कूजामि
कूजानि
बालका कूजतु
कूजानि इति भवति
भगिनी कूज अर्थं किम्
कूजन्ति राम रामेति
गायन्ति
गायन्ति निर्मला भगिनी भवती उक्तवती वा अहं न लिखितवती का उक्तवती कृ दातु धन्यवादः उमा भगिनी किमपि वदतु
अहं नदीं तरामि
तरामि सम्यक् नदीं तरामि साधारणतया अहम् इति वदामः चेत् as if you are asking permission अहं नदीं तरामि वा अहं गच्छामि वा एवं साधारणतया तथा एव भवति अस्तु अम्ब
अहं भोजनं करामि
करवाणि सो अत्र भिन्नरूपम् अस्ति खलु कृ धातु अस्ति चेत् एवम् अस्ति करवाणि अहं भोजनं करवाणि सम्यक् भोजनं करवाणि अस्तु उर्मिला भगिनि
सः देवं नमतु
सः देवं नमतु सो यु आर् गिविङ्ग् पर्मिशन् सः देवं नमतु सन्ध्या भगिनि
राधिका भगिनी आवाम् उपवने भ्रमतां वा
आं भ्रमताम् सो आवाम् इति अस्ति चेत् कथं भवति
द्विवचनं
आवाम्
आवां भ्रमावव
भ्रमावव सम्यक् भ्रमावव निश्चयेन भगिनि निश्चयेन सम्यक् धन्यवादः शारदा भगिनि किमपि समस्या इति चिन्तयामि अस्तु वीणाबेन् भगिनी सापि न वदति अस्तु शोभना भगिनी
वयं पाकं पचाम
सम्यक् पचाम वयं पाकं पचाम सम्यक् भगिनि चम्पा भगिनि
आं भगिनि वयं मन्दिरं गच्छाव
वयं मन्दिरं गच्छाव अवगच्छन्ति खलु किञ्चित् चिन्तनम् आवश्यकं नूतनविषयः अस्ति चेत् तूताम् अस्तु गच्छाम धन्यवादः सो अत्र तोलनं कृतम् अस्ति क्रीडतु क्रीडतु क्रीडतः क्रीडतां क्रीडन्ति क्रीडन्तु क्रीडसि क्रीड क्रीडतः क्रीडतं क्रीडत क्रीडत सो अत्र महाप्राण अल्प अल्पप्राण भेदः अस्ति अत्र मीवः मह अत्र नि व म एव सो वयं वदामः खलु पुनर्मिलाम मीन्स् लेट्स् मीट् पुनर्मिलाम एवम् अस्तु अग्रे गच्छामः सो इदानीमत्र आत्मनेपदी धातवः भवान् लोकतां भवान् एकवचनं लोकताम् एतत् सर्वं प्रथमपुरुषः भवन्तौ लोकेतां लोकेतां लोकन्तां सर्वत्र तथा तथा एव भवति लोकतां लोकेतां लोकन्तां मोदतां मोदेतां मोदन्तां कामयतां कामयेतां कामयन्तां यततां क्षमतां वयं वदामः खलु क्षम्यतां क्षमतां न क्षम्यतां क्षम्यतां भवान् कृपया क्षम्यताम् अस्तु अत्र स्व एताम् अध्वम् कोऽपि पठति वा श्रीनिवासमहोदय भवान् इति पठतु
भवान् किं भवान् लोकेतां भवन्तौ सारि भवान् लोकतां भवन्तौ लोकेतां भवन्तः लोकतां
लोकन्तां
भवन्तः लोकन्तां
भवन्तः लोकन्तां क्षम्यताम् ऐ जस्ट् इन्क्रीस् द फाण्ट् अस्तु जयश्री भगिनी त्वम् इति पठति वा कृपया त्वम्
आं भगिनि त्वं वीक्षस्व युवां वीक्षेतां यूयं वीक्षध्वम्
वीक्षध्वम् अहं चिन्तयामि भवान् भवति सुलभः इति यततां यथेतां यतन्ताम् एतदेव नूतनविषयः इति अहं चिन्तयामि अस्तु लता भगिनी भवति वा त्वं वा किमपि पठतु
त्वं भाषस्व युवां भाषेतां यूयं भाषध्वं
भाषध्वं भाषध्वं सम्यक् सविता भगिनी
आं भगिनि भवती रीडस् भगिनि
आं निश्चयेन
भवती कामयतां भवत्यौ कामयेतां भवत्यः कामयन्ताम्
कामयन्ताम् इदानीं कामयताम् इति प्रथमपुरुषे अस्ति त्वम् इति वदामः चेत् कथं वदामः मध्यमपुरुषे
कामस्व
कामयस्व
कामयस्व
त्वं कामयस्व युवां
यूयं कामयध्वं
कामयध्वं सम्यक् अस्तु कामयध्वं सम्यक् सम्यक्
Bhagini, will you be able to remember all this, Bhagini?
I don't think so, Bhagini, but you have to do it many.
These columns we are able to do. Without these columns, I don't know if we'll be able to.
Yeah, I know. It is not easy, but only...
Atmane Pada is tough, Bhagini. Parashmane Pada is easy.
Because Atmane Pada, we don't use it all the time. That's the reason. पुनः पुनः पठामः चेत् फार् एक्साम्पल् वर्ड् लैक् करवै वेरि डिफ़्रेण्ट् भुङ्क्ष्व भुङ्क्ष्व
वाट् डस् इट् मीन् भगिनि भुङ्क्ष्व
भुङ्क्ष्व इस् टु टु ईट् भुञ्जते भुञ्जते भुञ्जेते भुञ्जन्ते दट् इस् लट्लकार आत्मनेपदि एव भुञ्जते 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 भुञ्जेते भुञ्जन्ते इफ् ऐ सेड् भुञ्जति इस् राङ्ग् भुञ्जते भुञ्जेते भुञ्जन्ते But the karavai, the kr dhatu is ubhayapadi. K क्री धातु इस् उभयपदे क्रीणाति क्रीणीते इस् देर् क्रीणीष्व
भगिनि सहनावतु सहनौ भुनक्तु अदल लोट् लकार
भुनक्तु सम्यक् भुनक्तु
वीर्यं करवावहै
करवावहै आम् आमां सत्यं सत्यं धन्यवादः करवावहै सो यु आर् टाकिङ्ग् अबौट् द टीचर् अण्ड् द स्टूडेण्ट् आवां करवावहै सेवावहै अस्तु लेट् सी हौ वि डु अस्तु अत्र वन्दते इस् देर् लट्लकार वन्दतां वन्दन्ताम् अत्र मध्यमपुरुषः नास्ति ऐ मीन् द्विवचनं नास्ति कथं वदामः वन्दताम् अस्तु कस्य पर्याय विष्णुमहोदय
आं भगिनि वन्दते
वन्दतां
वन्दतां
वन्दे वन्देतां
वन्दतां वन्देतां वन्दन्तां
वन्दन्तां वन्दस्व
वन्दस्व वन्द वन्दत्वं
वन्देत्थां
स्वात्रेत्थां वन्दन्त्वं
वन्दध्वम् अस्तु
वन्दै वन्दावहै वन्दामहै
वन्दामहै अहम् अत्र लिखामि एकनिमिषं वन्देताम् अत्र वन्दस्व वन्दे वन्देथा खलु वन्देथा आम् वन्देथां वन्दावहै वन्दावहै इति अस्ति सम्यक् सह ते कथं भवति निर्मला भगिनि सहते इति लट्लकार इदानीं लोट्लकारं सहतां
सहेतां सहन्तां
सहन्तां
सहन् सहस्व
सहस्व
सहेतां
सहेतां
सहद्वं
सम्यक् सहद्वं
सहै
सहै
सहावहै
सहामहै सम्यक् सहामहै अस्तु उमा भगिनी सज्जते
सज्जतां सज्जीतां सज्जन्तां
सम्यक्
सज्जस्व सज्जेतां सज्जे सज्जद्वं
सज्जद्वं
सज्जै सज्जवहै सज्जामहै
सज्जावहै सज्जामहै सम्यक्
सज्जावहै सज्जामहै
सम्यक् अस्तु अग्रे अत्र किमपि नास्ति वा लिखामि सो अत्र तां मध्ये एताम् अस्ति एताम् ताम् स्व एताम् अन्य किं
द्वं
द्वम् अग्रे आनि अहमे आनि आव आम एवमस्ति अस्तु
भगिनि
क्षम्यतां क्षम्यताम् आमाम् ऐ वेण्ट् फार् परस्मै क्षम्यताम् पुनः वदतु.
ऐ
धन्यवादः. ऐ वेण्ट् परस्मे. अस्तु, लभते. उमा भगिनी, लभते.
लभतां, लभते,
लभेतां,
लभेतां, लभन्तां, लभस्व, लभेतं,
तां,
लभेतां, लभेतां, लभेद्वं,
लभद्वं,
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 लभै, लभवहै,
लभावहै, लभावहै,
लभावहै, लभामहै.
सम्यक्, लभावहै, लभामहै. सम्यक्. अस्तु, अम्ब रमते. अन्म्यूट् करोतु अम्ब, यु केन् डू इट् अम्ब. आगच्छतु. रमते,
रमते, नमतां,
रमतां. सम्यक्. रमेतां, रमन्तां. वदतु, रमतां, रमेतां, रमन्तां,
रमतां, रमेतां, रमन्तां, रमस्व.
सम्यक्, रमस्व,
रमस्व, रमस्वेतां,
रमेतां,
रमेतां, रमन्त्वं,
रमध्वं. सम्यक्, रमस्व, रमेतां, रमध्वं. सम्यक्.
वन्दै,
रमै,
वन्दै, वन्दे, वन्दते, वन्दे,
वन्दै, वन्दावहै, वन्दामहै. अस्तु, वन्दै, वन्दावहै, वन्दामहै. अत्र रम, रम् अस्ति, रमै, रमावहै,
रमावहै, रमामहै.
सम्यक्, बहु सम्यक् अम्ब, धन्यवादः. बहु सम्यक्. अस्तु,
राधिका भगिनी, अम्बा केन् डू इट् बेटर् देन् आल् आफ् अस्.
ऐ नो, ऐ नो, ऐ नो. धन्यवादः. अस्तु, धन्यवादः अम्ब. वेपते, ऊर्मिला भगिनि.
वेपतां, वेपेतां, वेपन्तां, वेपस्व, वेपेथां, वेपद्वं, वेपै, वेपावहै, वेपामहै.
सम्यक्. सो इट्स् गेटिङ्ग् ईजियर् खलु.
वेपते अर्थं क्षम्यतां.
वेपते, कोऽपि पश्यति वा अर्थं? किं
पेन्?
पेन्, वेपते. आमामां, वेपते इत्युक्ते कम्पते इव. पेन् वा? अस्तु, दृष्ट्वा वदतु किम् इति. कम्पते इति वदामः खलु. थेङ्क्स् न, कम्पते.
धन्यवादः.
वेपते इत्युक्ते कम्पते. पुनरेकवारं वदतु भगिनि.
वेपतां, वेपेतां, वेपन्तां, वेपस्व, वेपेथां, वेपद्वं, वेपै, वेपावहै, वेपामहै.
अस्तु, सम्यक्. धन्यवादः. स्वागतम् उषा भगिनी. उषा भगिनी खलु? स्वागतम्. अस्तु, अग्रे लज्जते. सन्ध्या भगिनी.
लज्जते, लज्जतां, लज्जेतां, लज्जन्तां, लज्जस्व, लज्जेतां, लज्जद्वं, लज्जै, लज्जावहै, लज्जामहै.
सम्यक्, लज्जावहे लज्जामहै. सम्यक्, धन्यवादः भगिनी. अस्तु, अग्रे शारदा भगिनी. शारदा भगिनी केनाट् म्यूट् इति लिखितवती. अस्तु,
अहम्
हा इदानीं करोति. आम् आं भगिनि, वदतु. ईक्षते
ईक्षते ईक्षताम् ईक्षेताम् ईक्षन्ताम् ईक्षस्व ईक्षेताम् ईक्षध्वम् ईक्षै ईक्षावहै ईक्षामहै.
अस्तु, सम्यक्. ईक्षते इत्युक्ते
पश्यति.
पश्यति, सम्यक्, पश्यति. अस्तु, वीणाबेन् भगिनी नास्ति. शोभना भगिनी.
आं भगिनी, युध्यतां.
युद्धते इति अस्ति. युद्धतां, सम्यक्.
युध्यतां, युध्येतां, युध्यन्तां, युध्यस्व, युध्येथां, युध्यध्वम्, युद्धै,
युध्यै,
युध्यै, युध्यावहै, युध्यामहै.
उत्तमम्, उत्तमम्. चेष्टते, चम्पा भगिनी.
भगिनी, युध्यै मीन्स् टु फैट् इस् इट्?
आम्, ऐ फैट्. युध्यै.
चेष्टतां, चेष्टेतां, चेष्टतां.
भगिनि, इदानीं वदतु.
चेष्टै, चेष्टावहै, चेष्टामहै.
चेष्टामहै, अस्तु. अग्रे उषा, उषा भगिनी वक्तुम् इच्छति वा? ऊहते.
अहं प्रयत्नं
करोति, करोतु भगिनि.
ऊहते, ऊहताम्, ऊहेताम्, ऊहेताम्, ऊहा, ऊहन्ताम्.
सम्यक्, ऊहन्ताम्.
महाप्रणतम्. ओके, ऊहेथाम्, ऊहेध्व,
ऊहध्वम्,
ऊहध्वम्, ऊहध्वम्, ऊहै, ऊहावह, ऊहावहै, ऊहामहै.
ऊहामहै, सम्यक्. ऊहावहै, ऊहामहै, सम्यक्. अन्तिममस्ति खिद्यते. अन्य, अन्य कोऽपि अस्ति वा यस्य नाम अहं न उक्तवती?
आं भगिनि, अहं पठामि.
अस्तु भगिनि.
खिद्यते, खिद्येतां, खिद्यतां, खिद्येतां, खिद्यन्तां, खिद्यस्व, खिद्येतां, खिद्यध्वं, खिद्यै, खिद्यावहै, खिद्यामहै.
खिद्यामहै. अन्य कोऽपि पठितुम् इच्छति वा पुनरेकवारम् अभ्यासार्थम्?
अहं वदामि.
अस्तु, किमपि वदतु.
ओके, रक्ष, रक्षतां, रक्षेतां.
भगिनि, नूतनं पदं, निरीक्षते.
निरीक्षते, ओके. निरीक्षतां, निरीक्षेतां, निरीक्षन्तां, निरीक्षस्व, निरीक्षेतां, निरीक्षध्वं, निरीक्षै, निरीक्षावहै, निरीक्षामहै.
निरीक्षामहै, सम्यक्, सम्यक्. अस्तु, अन्य कोऽपि अथवा
भगिनि, अहमपि पठ.
अस्तु सो अहं प्रथमतः आह्वयामि श्रीनिवासमहोदय क्षमते
क्षमते क्षमतां क्षमेतां क्षमन्तां क्षमस्व क्षमेतां क्षमध्वं क्षमै क्षमावहै क्षमामहै
सि अत्र रूपाणि अपि न सन्ति सम्यक्तया वदन्ति अस्तु सम्यक् चम्पा भगिनी
भगिनि मोदते ओ युध्यतां युध्येतां युध्यन्तां युद्धस्व युद्धेतां युद्धध्वं युद्धे युद्धावहे युद्धामहे
सो अत्र ऐ इति स्पष्टतया वदतु युद्ध्यै युद्ध्यावहै युद्ध्यामहै इति ऐ इति स्पष्टतया सम्यक् अस्तु अम्ब वदति वा शेते शेते मास्तु सहते सहताम् इति वदति सहताम् अत्र अस्तु अत्र पश्यतु वन्दतां वदतु वन्दतां वन्देतां
वन्देतां वन्दस्व वन्दस्व
अत्र अस्ति खलु तत् पठतु वन्दतां वन्देतां वन्दन्तां वन्दस्व वन्देतां
वन्देतां वन्दस्वं
वन्दध्वम् अस्तु वन्दै
वन्दै वन्दावहै
वन्दामहे एवमेव सहते इति अस्ति सहतां
सहतां सहतेतां
सहेतां सहन्तां सहेतां सहन्ताम् अस्तु
वन्दस्व
सहस्व
सहस्व सहसे सहस्वेतां
सहेतां
सहेतां
सहद्वां सम्यक् सहै
सहै
सहावहै
सहावहै सहामहे
सम्यक् सहावहै सहामहै तावदेव सम्यक् अस्तु जयश्री भगिनी खिद्यते
खिद्यते खिद्यतां खिद्येतां खिद्यन्तां खिद्यसे खिद्येतां खिद्यध्वम्
अत्र एकनिमिषं भगिनि खिद्यस्व खिद्यस्व
खिद्यस्व खिद्येतां खिद्य द्वं खिद्यै खिद्यावहै खिद्यामहै
सम्यक् अस्तु अग्रे युङ्क्ते मास्तु भुङ्क्ते मास्तु लभते करोतु लता भगिनि लभते
लभतां लभेतां लभन्तां लभस्व लभेत्वा लभेतां लभत्वम् लभतै लभावहै लभामहै
अत्र लभै एव अस्ति लभै
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 लभावहै लभामहै सम्यक्
धन्यवादः धन्यवादः
धन्यवादः अस्तु अग्रे निर्मला भगिनी भाषते
भाषन्ताम् भाषेस्व
भाषस्व
भाषस्व भाषतां भाषतां
भाषेतां
भाषेतां भाषध्वं भाषै भाषावहि भाषामहि
भाषामहि सम्यक् अस्तु सन्ध्या भगिनि अस्तु पुनरेकवारं निरीक्ष किमर्थम् इत्युक्ते एतानि विशेषक्रियापदानि इदानीं मास्तु क्षमते इति वदतु क्षमते
क्षमतां क्षमेतां क्षमन्तां क्षमस्व क्षमेतां क्षमध्वं क्षमै क्षमावहै क्षमावहै क्षमामहै
सम्यक् क्षमावहै क्षमामहै अस्तु शारदा भगिनि
आं भगिनि
मोदते वदति वा मोदते
मोदतां मोदेतां मोदन्तां मोदस्व मोदेतां मोदध्वं मोदै मोदावहै मोदामहै
मोदामहै सम्यक् सविता भगिनि भाषते
भाषतां भाषेतां भाषन्तां भाषस्व भाषस्व भाषध्वं
भाषेतां भाषध्वं सम्यक्
भगिनि मध्यमपुरुषं वन् सेकेण्ड् भाषतां भाषेतां भाषन्तां भाषस्व भाषस्व
भाषेतां
भाषेतां भाषध्वं भाषै भाषावहै भाषामहै
भाषामहै अस्तु शोभना भगिनि
आं भगिनि
सेवते वदति वा सेवते
आम् सेवतां सेवेतां सेवन्तां सेवस्व सेवेथां सेवध्वं सेवै सेवावहै सेवामहै
सेवामहै अस्तु उमाकृष्णन् भगिनी किं वदति युध्यते वदति वा युध्यते
आं भगिनि युद्धतां युद्धेतां युद्धन्तां
अत्र य अस्ति युध्यन्तां
युध्यस्व युद्धेतां युद्धेद्यं
युध्यध्वं
युध्यध्वं युध्यध्वं युद्धै युद्धै युद्धा युद्ध्यावहै युद्ध्यामहै
सम्यक् युद्ध्यावहै युद्ध्यामहै सम्यक् अस्तु अन्य कति उर्मिला भगिनि उर्मिला भगिनि
उषा
किमपि वदति वा ईक्षते
ईक्षते ईक्षताम् ईक्षेताम् ईक्षन्ताम् ईक्षस्व ईक्षेताम् ईक्षध्व ईक्षध्वम् ईक्षै ईक्षावहै ईक्षामहै
सम्यक् अस्तु उषा भगिनी चेष्टते अथवा लज्जते किमपि
लज्जते लज्जतां लज्जेतां
लज्जन्तां
लज्जतां लज्जेतां लज्जन्तां
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 लज्ज लज्ज य नास्ति लज्जतां लज्जेतां लज्जन्तां
लज्जन्तां लज्जस्व लज्जेतां लज्जध्वं
लज्जध्वम् अस्तु
then lajjai lajjavahai lajjamahai
lajjamahai. Astu Vishnu mahodaya.
Aam bhagini.
Ah, yat kimapi yah kopi svikaro.
Okay. Aam yudyate. युध्यतां युध्येतां युध्यन्तां युध्यस्व युध्येतां युध्यध्वं युध्यै युध्यावहै युध्यामहै.
सम्यक्. अस्तु अग्रे किम् अस्ति अत्र यतोदाहरणं वाक्यानि वदत. निरीक्षतां त्वं निरीक्षस्व अहं निरीक्षै एवम् एवम् अस्ति. सो अत्र केचन धातवः विशेषधातवः इति वक्तुं शक्नुमः. शेते कुरुते युङ्क्ते भुङ्क्ते ब्रूते दत्ते. किमर्थम् इत्युक्ते अत्र दर्शयामि. सो कुत्र स्मः? उदाहरणार्थं किम् आसीत् अत्र? शेते. अस्तु प्रथमं तत् स्वीकुर्मः. शेते शेते इति लिखामः चेत् शयनं करोति. शी धातु शीङ् अपि अस्ति. शीङ् अथवा शी एवं स्वीकुर्मः चेत् शेते. अत्र पश्यन्तु भिन्न भिन्नभिन्नरूपाणि सन्ति. शेते शयाते शेरते. शेते शयाते शेरते. शेषे शयाथे शेद्वे. अस्तु शये सेवहे सेमहे. एतत् कर्तरिप्रयोगे अस्ति. कर्तरिप्रयोगे अपि भिन्नरूपं खलु. इदानीं लोट्लकारं पश्यामः. शेतां शयातां शेरतां शेष्व शयातां शेध्वं शयै शयावहै शयामहै. बहु बहु भिन्न भिन्नरूपाणि सन्ति शेते. सो अतः एव एतादृश कठिनधातवः सन्ति चेत् वयं सुलभतया विभज्य प्रयोगं कर्तुं शक्नुमः. सः शयनं करोति. शयनं करोतु शेष्व इति न वक्तुं शक्नुमः सुलभतया. शेताम् इति अपि वक्तुं न शक्नुमः. अतः शयनं करोतु इति विभज्य प्रयोगम् उपयुज्य वक्तुं शक्नुमः सुलभतया. अस्तु अन्य किं? कुरुते कुरुते अपि तथा एव भवति. कुरुते कुरुते डुक्रन् करणे लोट्लकारं पश्यामः. वयं पूर्वमेव पठितवन्तः. सो अत्र आत्मनेपदी धातु कुरुताम् परस्मैपदी करोतु कुरुताम् कुर्वन्तु. कु इति भवति करोतु. कुरु कुरुतं कुरुत. करवाणि करवाव करवाम. इदानीम् आत्मनेपदी कुरुताम् कुर्वाताम् कुर्वताम् कुरुष्व कुर्वाताम् कुरुद्वं करवै करवावहै करवामहै. एवम् अस्ति. अस्तु समयः अभवत्. सो अहं किं करोमि? एतत् सर्वम् अहं लिखित्वा प्रेषयामि लोट्लकाररूपं. लट् लोट् खिद्यते न. युङ्क्ते युङ्क्ते अपि तथा एव अस्ति. युङ्क्ते कुत्र अस्ति? नास्ति. नो नास्ति. अस्तु अग्रे पश्यामि. समयः अभवत्. इदानीं समापयामः. शान्तिमन्त्रम् उक्त्वा. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति.
हरि ओम् हरि ओम् हरि ओम् हरि ओम्.